पुष्पेभ्यो धृतं दुग्धात्रसर्पयः एवं हि सर्ववेदानां गायत्री सार उच्यते गायत्र्यास्तु परा नास्ति शोधनं पापकर्मणां मा व्यावृते संयुक्ता प्रणवेन च संजपे
Thank you.
प्रदम् अन्नाय क्षुधितानां च स्वर्गाय नाकमिच्छताम् पशुभ्यः पशुकामानां पुत्रेभ्यः पुत्रकामिनां क्लेशितां शोकसान्त्यर्थं ऋणां शत्रुभयाय च पापेन पद्मपत्रमीवाधत गायत्री ध्यानपूतस्य कलं नाधति शोणसि एव किञ्चिष युक्तस्य विविध अतिपापकम् शान्तये गायत्रीमेव योग्नात्वा सम्यगुच्चरते पुनः इहा पुत्रतः पूज्यो सौ ब्रह्मलोकमवाप्नुयात्